सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। भगिनी कृपया तान् श्लोकान् स्मारयतु।
येनाक्षरसमाम्यायम् अधिगम्य महेश्वरा कृत्सं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौतागिरःपुंसां विमलैशब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। श्री ॐ श्रीगुरुभ्यो नमः।
धन्यवादाः भगिनी, उत्तमरीत्या श्रावितवती। सप्ताहद्वयात् पूर्वं तुदादिगणे न गुणः इति विषयः आरब्धः। गुणः इत्युक्ते गुणकार्यं। भुवादिगणे भूधातोः प्रसङ्गे गुणकार्यं कुत्र भवति? गुणकार्यं धात्वङ्गे भवति। धात्वङ्गे गुणः भूत्वा भूभो भवति। गुणकार्यम् एव अङ्गकार्यं। गुणकार्यं भवितुं तत्र निमित्तम् अपेक्षितम्। भुवादिगणे शप् इति सार्वधातुकप्रत्ययः निमित्तमस्ति। धातुतिङ्प्रत्ययोः मध्ये शपायाति। गुणकार्यं भवितुं निमित्तम् अपेक्षितं। यत्र कुत्रापि अङ्गकार्यं भवितुं निमित्तम् आवश्यकम्। अत्र प्रत्ययः एव निमित्तम्, इत्युक्ते प्रत्ययः आवश्यकः। प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति। प्रत्ययः नास्ति चेत् गुणकार्यं तत्र न सम्भवति। शपं निमित्तीकृत्य, शप् प्रत्ययं निमित्तीकृत्य भुवादिगणे गुणः सम्भवति। किन्तु तुदादिगणे शा इति विकरणप्रत्ययः अस्ति। शा विकरणप्रत्ययं निमित्तीकृत्य धात्वङ्गे तुदादिगणे गुणः असम्भवः। तत् कथं भवति इति सूत्राणाम् आधारेण परिशीलयन्तः आस्म वयम्। भुवादिगणे इगन्तधातुषु सार्वधातुकार्थधातुकयोः सूत्रेण गुणः भवति। इगुपधधातुषु भुवादिगणे पुगन्तलघूपधस्य च इत्यनेन गुणः भवति। किन्तु तुदादिगणे तादृशधातवः, इगन्तधातवः, इगुपधधातवः बहवः सन्ति चेदपि एताभ्यां द्वाभ्यां सूत्राभ्यां गुणकार्यं न सम्भवति। किमर्थम् इति प्रश्नः। तुदादिगणे शा इति विकरणप्रत्ययः अस्ति। शा इत्यस्मिन् केवलं षित्वम् अस्ति, पित्वं नास्ति। शा प्रत्ययः अपित् प्रत्ययः। तिङन्तरूपसाधनसमये तुदादिगणे सार्वधातुकार्धधातुकयोः पुगन्तलघूपधस्य च द्वयोः सूत्रयोः प्रसक्तिः अस्ति एव, किन्तु तयोः सूत्रयोः प्राप्तिः नास्ति। गुणकार्यं भवितुं तुदादिगणे शा इति विकरणप्रत्ययः अस्ति। षित्वात्, षित्वम् अस्ति इति कारणतः तत्र गुणकार्यं भवितुं प्रेरणदायिनी शक्तिः अस्ति, किन्तु अपित्वात् तत्र गुणः असम्भवः। तदर्थं तुदादिगणे इदं गुणविधायकसूत्रद्वयं बाधितं। तुदादिगणे शा प्रत्ययः षित् अस्ति किन्तु अपित् अस्ति, अतः गुणः न भवति। अत्र इतोपि ज्ञातव्यः अंशः कः इत्युक्ते, सार्वधातुकलकारेषु अथवा सार्वधातुकतिङन्तप्रक्रियायाम् अथवा सार्वधातुककृदन्तप्रक्रियायाम्, इत्युक्ते सार्वधातुकलकारेषु इति कथनेन तत्र लट् लोट् लङ् विध् लिङ् एतेषु चतुर्षु लकारेषु अपि च कृदन्तप्रक्रियायाम् अपि यत्र यत्र प्रत्ययेषु षित्वम् अपि च पित्वम् अस्ति चेदेव तत्र गुणः सम्भवति। अयं नियमः तु सर्वत्र दृश्यते सार्वधातुकप्रक्रियायाम् इति एकः विषयः। तुदादिगणे तुद् धातोः प्रसङ्गे चिन्तयामश्चेत् तुद् धातुः उदुपधधातुः अथवा लघुपधधातुः। तत्र शा इति विकरणप्रत्ययं निमित्तीकृत्य अङ्गे गुणः अभूत्वा तुदति इति रूपमेव सिद्ध्यति. तुदति इति साधुरूपं, तोदति इति अनिष्टं रूपम्. अत्रापि तुदु धातोः प्रसङ्गे पुगन्तलघूपधस्य च सूत्रस्य प्रसक्तिः अस्ति, किन्तु प्राप्तिः नास्ति. शायित्यस्य अपित्वात् तुदादिगणे गुणः असम्भवः. अत्र अपित् इति एका संज्ञा, अपित् इति कथनेन नापित् अपित् इति भवति. इत्युक्ते अपित् प्रत्ययः इति अर्थः. यस्मिन् प्रत्यये इत् संज्ञकपकारः नास्ति, सः प्रत्ययः अपित् प्रत्ययः. अपित् इत्यस्मिन् पदे नैतत्पुरुषसमासः अस्ति. शाप्रत्ययः अपित् प्रत्ययः. शाप्रत्ययः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकः एव, किन्तु पित्वं नास्ति इति कारणतः अपित् भवति. एतावता सार्वधातुकम् अपित् इति सूत्रं किं वदति? यः प्रत्ययः सार्वधातुकसंज्ञकः अपि च अपित् प्रत्ययः अस्ति चेत्, यथा तुदादिगणीयशाविकरणप्रत्ययः अस्ति अथवा दिवादिगणीयश्यन् प्रत्ययः अस्ति, तथा यः प्रत्ययः सार्वधातुकसंज्ञकः अपि च अपित् प्रत्ययः अस्ति सार्वधातुकम् अपित् इति सूत्रेण, सः अपित् प्रत्ययः नित्वत् प्रवर्तते, नित्वत् आचरति, नित्वत् कार्यं करोति, सः अपित् प्रत्ययः. सार्वधातुकम् अपित् इति सूत्रं कीदृशम्? अतिदेशसूत्रम्. सार्वधातुकम् अपित् सूत्रेण इतोपि किमुच्यते? सः प्रत्ययः सार्वधातुकप्रत्ययः भवेत् अपि च अपित् अस्ति चेत् नित्येव प्रवर्तते इति एकः विषयः. नित्येव प्रवर्तते इत्युक्ते तस्य प्रत्ययस्य स्वभावः, मूलस्वभावः तादृशः नास्ति. इत्युक्ते तस्य अपित् प्रत्ययस्य उपरि अथवा तस्य मूलस्वभावस्य उपरि नित्वम् अध्यारोप्यते, अथवा तस्य मूलस्वभावस्य उपरि नित्वस्य अध्यारोपणं भवति. सार्वधातुकम् अपित् इति सूत्रं परिशीलयामश्चेत् अनुवृत्तिसहितसूत्रमस्ति. सार्वधातुकम् अपित् नित् इदं सूत्रम् अतिदेशसूत्रम्. अतिदेशसूत्रम् इति कथनेन यस्य प्रत्ययस्य मूलस्वभावः तादृशः नास्ति. अत्र मूलस्वभावः इत्युक्ते शाप्रत्ययः साक्षात् नित् नास्ति. इत्युक्ते शाप्रत्ययः केवलम् अपित् प्रत्ययः, सः प्रत्ययः साक्षात् नित् नास्ति. तस्य स्वभावपरिवर्तनं भूत्वा तस्मिन् प्रत्यये नित्वम् अध्यारोप्यते इति तत्र ज्ञातव्यः अंशः. सः प्रत्ययः साक्षात् नित् नास्ति. अपि च सार्वधातुकम् अपित् इति सूत्रम् अतिदेशसूत्रम् अपि च संज्ञासूत्रम्. सार्वधातुकम् इति एका संज्ञा, तिङ्क्षित् सार्वधातुकं वयं पठितवन्तः. तिङ्प्रत्ययः षित् प्रत्ययः सार्वधातुकसंज्ञकः. सार्वधातुकम् इति एका संज्ञा, अपित्तपि एका संज्ञा एव, नित्तपि एका संज्ञा एव, एतानि नामानि एव. अपित् इति कथनेन इत् संज्ञकपकारः अस्मिन् प्रत्यये नास्ति इति अर्थः. नित् इति कथनेन ञकारः इत् संज्ञकः अस्मिन् प्रत्यये. इत्युक्ते यस्मिन् प्रत्यये ञकारः इत् संज्ञकः अस्ति, सः प्रत्ययः नित् प्रत्ययः. एतद् अवगन्तुं कानिचन उदाहरणानि एकवारं वदामि. वयं गणविकरणप्रत्ययान् जानीमः. कथम् इत्युक्ते शप् शन् श्ना श्नं श इत्यादयः गणविकरणप्रत्ययाः सन्ति. गणविकरणप्रत्ययेषु शप् एकः एव पित् प्रत्ययः. अन्ये गणविकरणप्रत्ययाः अपित् प्रत्ययाः. ते के इत्युक्ते श्नं श्ना श्नु श्यन् एते प्रत्ययाः अपित् प्रत्ययाः. एते प्रत्ययाः अपितः सन्ति इति कृत्वा तेषु सार्वधातुकम् अपित् इति सूत्रेण नित्वम् अध्यारोप्यते. ते नित्वत् आचरन्ति. अपित् गणविकरणप्रत्ययाः नित्वत् प्रवर्तन्ते. अपि च सार्वधातुकम् अपित् इति सूत्रे नित् इति पदम् अनुवृत्तिरूपेण पूर्वसूत्रात् आगतम्. तत्पूर्वसूत्रं किम् इत्युक्ते गाङ्कुटादिभ्यो निन्यत् इति सूत्रमस्ति. तस्मिन् सूत्रे नित् इति पदमस्ति, तस्मात् नित् इति पदम् अनुवृत्तिरूपेण आगतम्. गाङ्कुटादिभ्यो निन्यत् इति सूत्रम् अपि अतिदेशसूत्रम् एव. यथा सार्वधातुकम् अपि सूत्रम् अतिदेशसूत्रं तथा एव गाङ्गुटादिभ्यो निन्यत् इति सूत्रमपि अतिदेशसूत्रं किन्तु तस्य प्रसक्तिः सार्वधातुकप्रक्रियायां नास्ति इत्युक्ते सार्वधातुकप्रक्रिया इत्युक्ते लट् लोट् लङ् विधिलिङ् लकाराः अपि च सार्वधातुककृत् प्रत्ययाः सत्रशाण च एतेषां प्रसङ्गे गाङ्कुटादिभ्यो निन्यत् इत्यस्य प्रसक्तिः न आयाति तस्य प्रसक्तिः आर्धधातुकप्रक्रियायाम् आयाति किन्तु सूत्रं तु अतिदेशसूत्रं सार्वधातुकम् अपित् नित् इति अनुवृत्तिसहितसूत्रमस्ति खलु तत्र इत्युक्ते नित्वप्रसङ्गः प्रत्यये नित्वम् अस्ति वा न वा इति तादृशचिन्तनं केवलं सार्वधातुकप्रक्रियायाम् एव भवति न तु आर्धधातुकप्रक्रियायाम् आर्धधातुकप्रक्रियायां नित्वचिन्तनं न दृश्यते एव अपि च नित्वस्य अवगमनार्थम् एकम् उदाहरणं पश्यामः अष्टादश तिङ्प्रत्ययाः सन्ति खलु तत्र तिप्तस् झिसिप्तस्थ इत्यादयः तिप् इति प्रत्ययः प्रथमपुरुष एकवचनप्रत्ययः तस्मिन् पित्वमस्ति पित्वमस्ति इति कारणतः गुणः भवति पश्यन्तु रुद् धातुः अस्ति चेत् रुद् रोद् भवति गुणः भूत्वा तिप् प्रत्यये पित्वमस्ति इति कारणतः गुणः भवति द्वितीयप्रत्ययः अस्ति प्रथमपुरुष द्विवचनप्रत्ययः तस् अस्ति तस्मिन् प्रत्यये पित्वं नास्ति इति कारणतः तत्र गुणः असम्भवः तत्र अपित् प्रत्ययः किन्तु सः प्रत्ययः तिङ् तिङ्प्रत्ययः इति कारणतः तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः भवति तः प्रत्ययः इत्युक्ते द्विवचनप्रत्ययः अपित् अस्ति इति कारणतः नित्वं तस्मिन् प्रत्यये अध्यारोप्यते तेन गुणकार्यस्य अभावः दृश्यते तदर्थमेव रोदिति इति रूपमस्ति किन्तु रुदितः इति रूपमेव तत्र सिध्यति इत्युक्ते यत्र यत्र अपित् प्रत्ययेषु नित्वम् अध्यारोप्यते ते प्रत्ययाः नित्वत् प्रवर्तन्ते अष्टादशप्रत्ययेषु तिप् सिप् मिप् एते त्रयः प्रत्ययाः पित् प्रत्ययाः अन्ये पञ्चदशप्रत्ययाः अपित् प्रत्ययाः कथम् इत्युक्ते तस् झि था एते प्रत्ययाः अपित् प्रत्ययाः प्रथमपुरुषद्विवचनप्रत्यये पित्वं नास्ति सः प्रत्ययः सार्वधातुकः किन्तु अपित्वकारणात् नित्वत् आचरति इति तत्र विषयः सार्वधातुकप्रत्ययेषु तिङ्प्रत्ययानां प्रसङ्गे अहम् उक्तवती कृत्प्रत्ययेषु अपि एवमेव भवति कथमित्युक्ते सार्वधातुकप्रत्ययाः नव षित् प्रत्ययाः सन्ति नव षित् प्रत्ययाः सार्वधातुकाः सन्ति शत्रु शाणच् इत्यादयः षित्वकारणात् शत्रुप्रत्ययः सार्वधातुकसंज्ञकः किन्तु शत्रुप्रत्यये पित्वं नास्ति तदर्थं सः प्रत्ययः अपित् प्रत्ययः तत्रापि अपित्वकारणात् नित्वत् आचरति इत्युक्ते तिङन्तपदेषु तिङन्तपदरूपसाधनसमये अपि एतादृशं चिन्तनमेव कृदन्तपदनिर्माणप्रसङ्गे अपि एतादृशचिन्तनमेव करणीयं शत्रुप्रत्ययः षित् अस्ति किन्तु अपित् अस्ति अत्र तिङ्क्षित् सार्वधातुकम् इत्यनेन शत्रु प्रत्ययः सार्वधातुकसंज्ञकः किन्तु अपित् प्रत्ययः यत्र यत्र अपित् प्रत्ययाः सन्ति तत्र नित्वम् अध्यारोप्यते इति विषयः तिङ्क्षित् सार्वधातुकम् इत्यनेन प्रत्ययाः सार्वधातुकसंज्ञकाः भवन्ति आर्धधातुकं शेषः इति सूत्रेण अन्ये प्रत्ययाः आर्धधातुकाः भवन्ति आर्धधातुकप्रत्ययेषु पित्वम् अपित्वम् इति चिन्तनं तत्र किमपि नास्ति केवलं सार्वधातुकप्रत्ययेषु एव सः प्रत्ययः पित् अस्ति वा अपित् अस्ति वा इति तादृशभेदः वर्तते तादृशचिन्तनं करणीयम् आर्धधातुकप्रक्रियायां तादृशचिन्तनं नास्ति इति एकः विषयः एतावत्पर्यन्तं सार्वधातुकम् अपित् इति सूत्रं वयं परिशीलितवन्तः तत्र नित्वं नित्वम् इति बहुवारम् अहम् उक्तवती नित्वम् अध्यारोप्यते चेत् किं भवति नित्वस्य प्रयोजनं किम् इति अपि अस्माभिः ज्ञातव्यं सार्वधातुकम् अपित् इति सूत्रेण अपित् प्रत्ययेषु नित्वम् अध्यारोप्यते किन्तु तेन किं तेन प्रयोजनं किम् इति तत्र प्रश्नः उदेति नित्वस्य प्रयोजनानि कानि नित्वस्य प्रयोजनं क्नीति च इति सूत्रेण उच्यते नित्वस्य बहूनि प्रयोजनानि सन्ति किन्तु तेषु अन्यतमम् एकं प्रयोजनमस्ति गुणनिषेधः क्निति च इति सूत्रेण गुणनिषेधः भवति. यत्र यत्र अपित् प्रत्ययः अस्ति तत्र नित्वम् अध्यारोप्यते, तत्र गुणनिषेधः भवति इति एतावता सारांशः. तुदादिगणीय उदाहरणं स्वीकुर्मः चेत्, तुदादिगणे शा इति विकरणप्रत्ययः धातुतिङ्प्रत्ययोः मध्ये आयाति. शा प्रत्ययः षित्वात् सार्वधातुकः, किन्तु तस्मिन् पित्वं नास्ति. पित्वं नास्ति इति कारणतः सार्वधातुकम् अपित् इति सूत्रेण नित्वं तस्मिन् अध्यारोप्यते, तदा सः प्रत्ययः नित् इव कार्यं करोति, नित् इव प्रवर्तते, नित् इव सः अपित् प्रत्ययः शा प्रत्ययः नित् इव आचरति. तुदादिगणीयधातुः एव लिख् धातुः अस्ति. लिख् धातुः इगुपधधातुः चेदपि तुदादिगणे अस्ति इति कृत्वा, शा विकरणप्रत्ययः अस्ति इति कृत्वा, तत्र गुणकार्यं बाधित्वा लिख् धातुतः लिखति रूपमेव सिद्ध्यति, न तु लेखति. एतावता सार्वधातुकम् अपित् इति सूत्रस्य नियमद्वयं किम् इत्युक्ते, प्रत्ययः सार्वधातुकः भवेत् अपि च अपित् भवेत्, तदानीम् एव तस्य नित्वं भवति. पुनस्मरणार्थं वदन्ती अस्मि, तुदादिगणीय शा इति विकरणप्रत्यये शकारे प्रेरणदायिनी शक्तिः अस्ति. इत्युक्ते शकारः इत् संज्ञकः सार्वधातुकः, प्रत्ययः सार्वधातुकः अपि च अपित् भवति चेदेव नित्वम् अध्यारोप्यते तस्मिन् इति तत्र विषयः. तदर्थमेव इदं वाक्यम् अस्मिन् करपत्रे लिखितम् अस्ति. शा इत्यस्मिन् गुणकार्यं भवितुं प्रेरणदायिनी शक्तिः अस्ति. इत्युक्ते शा प्रत्ययः सार्वधातुकः किन्तु अपित्, अपित्वात् गुणनिषेधः. सम्पूर्ण अष्टाध्याय्यां पित्वस्य प्रयोजनं विशेषतया कुत्रापि न उक्तम् अस्ति. केवलं सार्वधातुकम् अपित् इति सूत्रस्य कथनेन एव पित्वस्य प्रयोजनं वयं ज्ञातुं शक्नुमः. इत्युक्ते सार्वधातुकम् अपित् इति सूत्रेण एव पित्वस्य प्रयोजनं स्पष्टीक्रियते. सार्वधातुकम् अपित् इति एकेन सूत्रेण एव पित्वस्य प्रयोजनम् अष्टाध्याय्याम् उक्तमस्ति. अन्ततो गत्वा अत्र सारांशः कः इत्युक्ते, गुणकार्यं भवितुं षित्वम् अपेक्षितम्. गुणकार्यं भवितुं षित्वं निमित्तं भवति. गुणकार्यं निषेधयितुम् अपित्वं निमित्तं भवति. गते सप्ताहे वयं सार्वधातुकम् अपित् इति सूत्रस्य प्रसङ्गे किञ्चित् पठितवन्तः. अपि च सार्वधातुकम् अपित् इति सूत्रस्य प्रसङ्गे ज्ञातव्यान् कांश्चन अंशान् अहं किञ्चित् स्मारितवती. इदानीं वयं क्निति च इति सूत्रात् आरभ्य करपत्रात् पठेम. अस्माकं करपत्रे चतुर्थबिन्दोः पर्यन्तं वयं पठितवन्तः. पञ्चमबिन्दुतः आरभ्य अद्य वयं पठेम. तदर्थम् इदानीं भवन्तः सर्वे करपत्रम् उद्घाटयन्तु, पश्यन्तु. पञ्चमबिन्दुः अस्ति क्निति च गुणबाधकसूत्रं, तस्मात् एकवारम् अवलोकयाम. गोमती भगिनी भवती आरम्भं करोतु.
पञ्चमबिन्दुः घेति च द्वितीयाध्याये द्वितीय प्रथमाध्याये प्रथमपादे पञ्चमसूत्रं गुणबाधकं सूत्रम्. अनुवृत्तिसहितं सूत्रं घेति च इकः गुणवृद्धिः न. यः प्रत्ययः गित् कित् अथवा ङित् अस्ति अपि च तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति. गुणस्य वृद्धेः च बाधकं सूत्रम् इदम्. सम्प्रति अस्माकम् अवधानं गुणे न तु वृद्धौ इति दत्तम्. कीति सप्तम्यन्दं हलन्तं पदं, तस्य अर्थः एवं. ग च क च ङ च ते इत संज्ञकवर्णाः यस्य सः प्रत्ययः ङित् तस्मिन् इति सप्तम्यन्दं यतः कार्यं तस्मात् पूर्वं भवति स्म. तस्मात् प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च न भवति. अत्र गीति च इति सूत्रस्य विषये प्रतिपादयति. सूत्रं अस्ति ङीति च अनुवृत्तिसहितसूत्रं ङीति च इकः गुणवृद्धिः न ङीति इत्युक्ते ककार गकार ङकारः सप्तम्यन्दं ङीति च इति अव्ययम् इकः इत्युक्ते प्रत्याहारः अस्ति इ ऋ वर्णाः सन्ति गुणवृद्धिः इत्युक्ते गुणः च वृद्धिः तद् न भवति यः प्रत्ययः दित् अस्ति कित् अस्ति अथवा नित् अस्ति तस्य प्रत्ययस्य कारणात् अङ्गेः एकः स्थाने गुणः अथवा वृद्धिः भवति स्म स न भवति यथा प्रत्ययः गित्त कित्त ङित्त अस्ति चेत् तस्य पूर्वं यद् अङ्गम् अस्ति तत्र इकः वर्णः अस्ति चेत् उपधायाः इकः वर्णः अस्ति चेत् तत्र गुण अथवा वृद्धिः न भवति गुणवृद्धिबाधकसूत्रमिदम् इति सप्तम्यङ्गं हलन्द्यं पदम् अर्थः अस्माभिः दृष्टम् इ ग भवति क भवति ङ भवति इत्सज्ञकः वर्णाः प्रत्ययस्य अन्ते ग भवति न तु क भवति न तु गकार ककार चकारः भवति प्रत्यया अन्ते इत्सज्ञकं भूत्वा तस्य लोपः भवति अतः वयं गित् कित् ङित् इति वदामः तदेव न भगिनि
उत्तमं तदेव साधु उक्तवती एतावत् अत्र कित् गित् नित् इति लिखितमस्ति वयं सर्वे जानीमः कित् प्रत्ययाः इत्युक्ते क्तव तु प्रत्ययः कित् अस्ति ककारः इत् यस्य सः कित् क्तव तु प्रत्ययः क्ता प्रत्ययः क्तिं प्रत्ययः क्विप् प्रत्ययः एतेषु प्रत्ययेषु ककारः इत् संज्ञकः कित् प्रत्ययः अस्ति चेत् गुणः न सम्भवति तदर्थमेव लिख् धातोः रूपं परिशीलयामश्चेत् लिखितवान् लिखितम् इत्यादीनि पदानि सिद्ध्यन्ति तत्र प्रत्ययः कित् प्रत्ययः अस्ति इति कारणतः गुणः अभूत्वा लिखितवान् इति रूपमेव सिद्ध्यति किन्तु वयं लेखितुम् इति पदं स्वीकुर्मः चेत् लेखितुम् इत्यस्मिन् तत्र तुमुन् प्रत्ययः अस्ति तुमुन् प्रत्ययः सार्वधातुकः नास्ति कित् नास्ति सार्वधातुकः नास्ति आर्धधातुकप्रत्ययः तिंशित् नास्ति इति कृत्वा आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकप्रत्ययः तुमुन् प्रत्ययः कित् नास्ति गित् नास्ति नित् नास्ति इति कृत्वा तत्र गुणकार्यं भूत्वा धातुः इगुपदधातुः अस्ति इति कृत्वा गुणकार्यं भूत्वा तत्र लेखितुम् इति रूपं सिद्ध्यति इतोपि अन्यत् उदाहरणं वदामि क्रूधातुं स्वीकुर्मः चेत् क्रूधातोः क्तवत्वन्तरूपं कृतवान् अथवा क्तान्तरूपं कृतः कृतं केवलं क्रूधातुं स्वीकुर्मः ता इति योजयामः तेन कृत तत्र गुणकार्यं न दृश्यते तत्र प्रत्ययः क्तवतु अथवा क्ता प्रत्ययः कित् अस्ति कित् अस्ति इति कारणतः अनेन सूत्रेण क्निति च सूत्रेण गुणकार्यम् अभूत्वा कृतवान् कृत इत्यादीनि रूपाणि सिद्ध्यन्ति किन्तु तृच् इति एकः प्रत्ययः अस्ति तृच् योजनेन कर्ता इति रूपं सिद्ध्यति क्रूधातुतः तृच् योजनेन कर्ता तत्र किम् अभवत् इत्युक्ते तृच् प्रत्ययः आर्धधातुकप्रत्ययः सार्वधातुकः नास्ति किन्तु तत्र कित्वं गित्वं नित्वं नास्ति इति कारणतः गुणकार्यं भूत्वा क्रू कर् भवति कर् योगः तृच् कर्तृ इति प्रातिपदिकं तत्र सिद्ध्यति प्रत्ययः एतेषु त्रिषु अन्यतमः अस्ति चेत् गुणकार्यं क्निति च इति सूत्रेण बाधितं भवति तदर्थमेव इदं सूत्रं गुणबाधकसूत्रं गुणस्य वृद्धेः च द्वयोः बाधकसूत्रम् भगिनी वदतु भवत्याः अवगमनं किं
कित् प्रत्ययमस्ति चेत् उदाहरणं वदामि भगिनि
किमपि अस्मिन् प्रसङ्गे यदा आवश्यकम्
अस्मिन् प्रसङ्गे सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणकार्यं भवति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः परे अस्ति चेत्, परन्तु तत् कित् मिति च इति गुणकार्यं न भवति यदा तद् निद्वत् भवति. निद्वदिस्त इति किति च सूत्रेण एव आगच्छति. कित् भवति चेत् तत्र गुणः न भवति. तदेव अहं जानामि भगिनि.
उत्तमं, तदेव अत्र सारांशः. इदमेव सूत्रम् अधोभागे पुनः अपि आयाति, तत्र इतोपि किञ्चित् परिशीलयामः. साधु भगिनी, धन्यवादाः. वीणा भगिनी, भवती अग्रिमं करोतु.
सार्वधातुकमपि इत्यनेन सूत्रेण यः प्रत्ययः अपित् सः नित् इव अस्ति. अतः यत् कार्यं नित् प्रत्ययः करोति तदेव कार्यम् अपित् प्रत्ययः अपि करोति. तुदादिगणे श विकिरणप्रत्ययः अपित् अस्ति, अतः नित् इव कार्यं करोति, नाम गुणबाधकं कार्यं करोति. यः प्रत्ययः सार्वधातुकः अस्ति तत्र गुणकार्य सम्भवति, तस्य प्रसक्तिः भवति, परन्तु सः सार्वधातुकप्रत्ययः अपित् भवति यतः पकारस्य अभावात्. तदा सः सार्वधातुकप्रत्ययः अपित् प्रत्ययः भवति. सः सार्वधातुक अपित् प्रत्ययः यथा नित् प्रत्ययः कार्यं करोति तथा एव कार्यं करोति. यः प्रत्ययः नित् प्रत्ययः अस्ति नित् प्रत्ययस्य परे यदि गुण अथवा वृद्धि कार्यस्य प्रसक्तिः अस्ति तत् कार्यं न सम्भवति, यतः अत्र निति च इति एकं गुणबाधकं सूत्रम् अस्ति. नित् इति तस्य सदस्यः अस्ति. एवं सार्वधानु यः प्रत्ययः सार्वधातुकः अस्ति अपि च अपित् अस्ति तत् प्रत्ययः नित् इव कार्यं करोति. तदर्थं गुण अथवा वृद्धिकार्यं न सम्भवति.
उत्तमम्. अस्मिन् परिच्छेदे वाक्यद्वयं बहु मुख्यमस्ति. इत्युक्ते यः प्रत्ययः अपित् अपि च सार्वधातुकः सः नित् इव अस्ति इति प्रथमं वाक्यं. द्वितीयं वाक्यम् अपि आवश्यकम् अस्माकं कृते. यत् कार्यं नित् प्रत्ययः करोति तदेव कार्यम् अपित् प्रत्ययः अपि करोति. इत्युक्ते तुदादिगणे एतादृशं कार्यं भवति. इत्युक्ते तुदादिगणे केचन धातवः सन्ति सम्प्रसारणी धातवः, तेषु धातुषु सम्प्रसारणकार्यं भवति तुदादिगणे. तत्र नित्वम् अपेक्षितं. नित्वम् अपेक्षितम् इत्युक्ते तत्र एकं सूत्रमस्ति, गृहिज्या वै व्यधि व्यष्टि विचति पृच्छति भृज्यति नाम इति एकं सूत्रमस्ति. तस्मिन् सूत्रे नित् इति निमित्तं भवति. इत्युक्ते नित्वं निमित्तीकृत्य कार्याणि सम्प्रसारणकार्याणि भवन्ति. तदर्थम् अत्र इदं वाक्यं बहु आवश्यकमस्ति. यत् कार्यं नित् प्रत्ययः करोति तदेव कार्यम् अपित् प्रत्ययः अपि करोति. एतद् अवगन्तुमेव उदाहरणम् अत्र दत्तमस्ति. भवती एव पठतु.
गुणाभावे वर्णमेलने लिख् योगः अ योगः ति लिखति इति भवति. लिक् धातुः तर्हि अस्तु. गुणाभावे वर्णमेलने लिखति इति प्रथमपुरुष एकवचनरूपम् अस्ति.
भगिनी अत्र कार्यं किञ्चित् विवृणोतु.
अस्तु भगिनि, अत्र लिख् धातुः अस्ति, इदुपदधातुः अस्ति, तुदादिगणीयः अस्ति. तुदादिगणे विकिरणप्रत्ययः अस्ति श. श अत्र शकारस्य इत्संज्ञा भवति लशक्व तद्धिते इति सूत्रेण, तस्य लोपः इति सूत्रेण तस्य लोपः भवति, अकारमात्र अवशिष्यते. श इति षित् अस्ति, अतः तिंशित् सार्वधातुकम् इति सूत्रेण च प्रत्ययः सार्वधातुकः संज्ञकः भवति, सार्वधातुकप्रत्ययः अस्ति. परन्तु तत्र पकारः नास्ति, पकारस्य अभावात् श प्रत्ययः सार्वधातुकः अस्ति परन्तु अपित् अस्ति. अतः पुगन्तलघूपदस्य च इति सूत्रेण अत्र उपाधाया स्थितः इकः गुणः सम्भवः अस्ति, प्रसक्तिः अस्ति, परन्तु अपित्वात् गुणः न भवति. आ लिख् धातु योगः अत्र अङ्गस्य गुणकार्यं न भवति. लिख् धातु योगः अ इति श प्रत्ययस्य प्रतिनिधिः अस्ति. योगः तिङ् प्रत्ययः ति लिखति इति भवति, अत्र गुणकार्यं न भवति, केवलवर्णमेलनम् अस्ति अत्र.
उत्तमं. गते सप्ताहे वयं किञ्चित् चिन्तनं कृतवन्तः, लिख् धातुः भुवादिगणे अस्ति इति, लिख् धातोः रूपं लेखति अस्ति इति कोऽपि उक्तवान्. अहं किञ्चित् परिशीलितवती, धातुपाठे तु लिख् धातुः तुदादिगणे एव दृश्यते, किन्तु भुवादिगणे अस्ति इति कोऽपि उक्तवान्. यत् लिख् धातुः तत्र गुणकार्यं भूत्वा लेखति इति रूपं सिध्यति, गत्यर्थकधातुः अस्ति भुवादिगणे इति सः उक्तवान्, तत् साधु इति भाति, किन्तु मया न दृष्टम्. नरेश् महोदय, भवान् पठतु.
गुणभावे वर्णमेलने लिख् योग योगति लिखति इति भवति. तर्हि सारांशः एवं यत् यत्र विकरणप्रत्यये पकारः नास्ति तत्र शकारस्य गुणार्थं प्रेरणादायिनी शक्तिः अवरुद्धा भवति. तुदादिगणे विकरणप्रत्यये गुणार्थं प्रेरणादायकः शकारः अस्ति, किन्तु स च शकारः स्वस्य कार्यं कर्तुं न अर्हः, यतः इत् संज्ञक पकारस्य अभावे गुणार्थं बाधा भवति. पूर्णसूत्रार्थः. सार्वधातुकम् पित् सार्वधातुकं यद् पित् यद्
यदपित्
यदपित् यद् तद् निद्वत् भवति. सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदम् इदं सूत्रम् गाङ्कुटादिभ्यो अनित् इत्यस्मात् नित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित् किन्ति. आम्, अत्र सारांशः अस्ति. तुदादिगणे विकरणप्रत्यय शकारः अस्ति परन्तु पकारः नास्ति, तत्र शकारः गुणार्थं प्रार्णादायिनी अस्ति परन्तु पकारस्य अभावे अत्र प्रेरणा अवरुद्धा अस्ति. तुदादिगणे शकारः अस्ति परन्तु पकारः नास्ति, अत्र गुणः गुणार्थं बाधा भवति. तत् अस्ति तुदादिगणे. अत्र पूर्णसूत्रार्थ सार्वधातुक तत् षित् तिंशित् प्रत्यय अस्ति चेत् सार्वधातुकः अस्ति परन्तु तुदादिगणे शकारः तु अस्ति परन्तु पित् नास्ति, अत्र इत् अपित् अस्ति. अपित् अस्ति चेत् तत् अपि नित् भवति सार्वधातुकं यत्र पित् नास्ति तत्र अपित् भवति. अत्र सार्वधातुकम् अपित् अस्ति चेत् तत् द्विपदं सूत्रम् अस्ति. सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तम् अत्य सूत्रं गाङ्कुटादिभ्यो निन्तित् इत्यस्य नित् इत्यस्य अनुवृत्तिः तत्तु न अवगमामि.
भवन्तः सर्वे जानन्ति एव अत्र पूर्वस्मिन् परिच्छेदे शकारस्य गुणार्थं प्रेरणदायिनी शक्तिः अवरुद्धा भवति. इत्युक्ते शकारे प्रेरणदायिनी शक्तिः अस्ति. शकारे प्रेरणदायिनी शक्तिः अस्ति इत्युक्ते प्रत्यये शकारः इति संज्ञकवर्णः अस्ति चेत् सार्वधातुकप्रत्ययः भवति. तदर्थमेव शकारे प्रेरणदायिनी शक्तिः अस्ति. किन्तु सः शकारः स्वस्य कार्यं कर्तुं न शक्नोति. केवलं शकारः अस्ति चेत् तत्र गुणः असम्भवः. पकारः अपि आवश्यकः. पकारस्य अभावे गुणार्थं बाधा. सार्वधातुकम् अपि इति सूत्रं परिशीलयामश्चेत् अत्र पदद्वयमस्ति. पदद्वयं प्रथमान्तं पदमस्ति. सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं. सूत्रस्य दर्शनेन किम् अवगन्तुं शक्नुमः? इदं सूत्रं संज्ञासूत्रं भवितुमर्हति इति चिन्तयितुं शक्नुमः. साधारणतया संज्ञासूत्रेषु पदानि प्रथमान्तानि भवन्ति. सार्वधातुकम् इति एका संज्ञा, अपित् इति एका संज्ञा. तत्र अनुवृत्तिं पश्यामश्चेत् सार्वधातुकम् अपित् नित्, इदं नित् इति पदं पूर्वसूत्रात् आगतं. सूत्रसङ्ख्यां परिशीलयन्तु. अत्र गाङ्कुटादिभ्यो णिन्यत् इति सूत्रमस्ति. प्रथमाध्यायस्य द्वितीयपादस्य प्रथमं सूत्रमस्ति. किन्तु सार्वधातुकम् अपित् इति चतुर्थं सूत्रमस्ति. पूर्वसूत्रात् नित् इति पदम् अस्मिन् सूत्रे आगतं. गाङ्कुटादिभ्यो णिन्यत् इति सूत्रम् अपि अतिदेशसूत्रमेव. तेन सूत्रेण अपि स्वभावपरिवर्तनं भवति. यथा सार्वधातुकम् अपित् इति अतिदेशसूत्रम्, अनेन सूत्रेण यद्यपि सः प्रत्ययः केवलम् अपित्, साक्षात् नित् नास्ति, साक्षात् नित् नास्ति चेदपि तस्मिन् नित्वम् अध्यारोप्यते इति वयम् अवगतवन्तः. तादृशं सूत्रमेव इदं गाङ्कुटादिभ्यो णिन्यत्. अस्मिन् सूत्रे अन्तिमभागे बहूनि अनुनासिक अक्षराणि सन्ति. तदर्थं तत्र किञ्चित् उच्चारणे काठिन्यं भवति. चवर्गीयव्यञ्जनमस्ति, टवर्गीयव्यञ्जनमस्ति, तवर्गीयव्यञ्जनमस्ति, अपि च कवर्गीय इत्युक्ते चत्वारि वर्गीय अनुनासिकव्यञ्जनानि एकत्र स्थापितानि. तदर्थं तत्र उच्चारणकाठिन्यम् अस्ति. किन्तु गाङ्कुटादिभ्यो निर्णीत् इति सूत्रस्य प्रसङ्गः सार्वधातुकप्रक्रियायां नास्ति. केवलम् आर्धधातुकप्रक्रियायाम् एव तस्य प्रसङ्गः भवति. किन्तु तत् सूत्रमपि अतिदेशसूत्रम् एव. तस्मात् सूत्रात् नित् इति पदम् अस्मिन् सूत्रे आगतम्. साधु महोदय, धन्यवादः.
धन्यवादः
भगिनि. अत्र गाङ्कुटादिभ्य इत्युक्ते धातुविषये वा कस्मिन् विषये अस्ति गाङ्कुटादिभ्य इति?
तस्य प्रसङ्गः अधुना मास्तु भगिनि. तस्मात् सूत्रात् नित् इति पदम् अस्मिन् सूत्रे आगतं तावत् अवगच्छामश्चेत् पर्याप्तं भवति. इत्युक्ते आरम्भे वयं सर्वे सार्वधातुकप्रक्रियायां कीदृशानि कार्याणि भवन्ति इति चिन्तनं कुर्मः. पश्चादेव आर्धधातुकप्रसङ्गः. आदौ वयं लट् लोट् लङ् विधिलिङ् एतेषां लकाराणां प्रसङ्गे ज्ञास्यामः. एतेषु लकारेषु रूपसिद्धिः कथं भवति इति अत्र विषयः. अग्रे सरेम. क्निति च इति सूत्रमस्ति. नित्वम् अध्यारोप्यते चेत् नित्वस्य प्रयोजनं किम् इति प्रश्नः. नित्वमस्ति चेत् एकं प्रयोजनमस्ति गुणवृद्धिनिषेधः. गुणवृद्धिनिषेधः क्निति च सूत्रेण भवति. अस्मिन् सूत्रे इत्यपि किं दत्तमस्ति इति एकवारम् अवलोकयाम. नरसिंह हेग्डे महोदय, भवान् पठतु.
निति च 1.1.5 निषेधकसूत्रं नाम अनेन कार्यं निषिध्यते. निषेधकं सूत्रं विधिसूत्रेषु अन्तर्भवति. सार्वधातुकमपि 1.1.4 कीदृशसूत्रं
वदतु महोदय, किं पृष्टवान्?
कीदृशसूत्रम् इति पृष्टवान्,
इदं सूत्रं वा?
हा, निति च निषेधकसूत्रं
तस्मिन् प्रसङ्गे किञ्चित् ज्ञातव्यम्। इदं सूत्रं गुणबाधकसूत्रं, गुणनिषेधकसूत्रम् अथवा कार्यस्य निषेधः क्रियते अनेन सूत्रेण। यत्र कुत्रापि कार्यमस्ति चेदेव तस्य निषेधः भवितुमर्हति। इत्युक्ते प्रथमतया विधिसूत्रम् आगत्य, अत्र विधिसूत्रं किम् इत्युक्ते लिख् धातोः प्रसङ्गे पुगन्तलघूपधस्य च इति सूत्रेण गुणविधायककार्यं भवति। तादृशं कार्यं यत्र यत्र तस्य प्रसक्तिः अस्ति तत्र अपित् प्रत्ययः अस्ति इति कारणतः गुणकार्यस्य निषेधः भवति इति कारणतः इदं सूत्रं कार्यनिषेधकसूत्रम् अथवा विधिसूत्रमपि वक्तुं शक्नुमः। इत्युक्ते अनेन विधिः निषिध्यते, इदं सूत्रं विधिसूत्रेषु अन्तर्गतम्। अधोभागे इतोपि लिखितमस्ति निषेधकसूत्रम् अपि विधिसूत्रेषु अन्तर्गतं। सूत्राणि षड्विधानि इति वयं पठितवन्तः। तेषु यद्यपि निषेधकसूत्रम् इति न लिखितमस्ति, अत्र एव पश्यतु संज्ञा च परिभाषा च विधिर्नियम एव च।
अपि च तं प्रत्ययं निमित्तीकृत्य एकस्थाने गुण अथवा वृद्धिः भवति स्म, सः गुणवृद्धिः न भवति। ग च क च ङ च तेषाम् इतरेतर द्वन्द्वः पठितुं न शक्नोमि। यस्य तस्मिन् परे किङ्क्ति द्वन्द्वगर्भबौरीसमासः, अत्र ग स्थाने ककार खारि च इत्यनेन चत्वसन्धि, निचितसमाप्त सप्तमान्त्यं च अव्ययपदं द्विपदमिदं सूत्रम्। इको गुणवृद्धि 1.1.3 इत्यस्य पूर्णतया अनुवृत्ति, न धातुलोप अर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं निकि किङ्ति च इकः गुणवृद्धि न। पाणिनीयसूत्राणि षड्विधा, संज्ञा च परिभाषा च विधिर्नियम एव च। आतिदेशो अतिदेशो अधिकारश्च षड्विधं सूत्रलक्षणम्।
किञ्चित् वदतु उपरितनपरिच्छेदे प्रत्येकं वाक्यं स्वीकृत्य किञ्चित् विवरणोतु।
निति च यः प्रत्ययः गित् कित् अथवा नित् अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य एकस्थाने गुण अथवा वृद्धिः भवति स्म, सः गुणवृद्धिः न भवति। यदि प्रत्ययः गित् कित् अथवा नित् अस्ति चेत् सार्वधातुक अर्धधातुकयो इत्यनेन सूत्रेण गुणः भवितुम् अर्हति चेत् अपि गुणः न भवति, या वृद्धिः न भवति। ग च क च न च तेषाम् इतरेतर द्वन्द्व द्वन्द्वेन अत्र समासः अस्ति, यै दत्तमस्ति बहुव्रीहिसमासः अस्ति। अत्र ग स्थाने ककार खारि च इत्यनेन ग अत्र एक घ क भवति इत्यनेन किति च इति अभवत्। इको गुणवृद्धि इत्यस्य पूर्णतया अनुवृत्ति अत्र अस्ति, न धातुलोप अर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अस्ति, अनुवृत्तिसहितसूत्रं भवति, निति च इकः गुणवृद्धि न। इन् सम्मरि अत्र अस्ति, यदि प्रत्ययगित् अथवा किस्त् अस्ति अथवा नित् अस्ति चेत् गुणकार्यस्य प्रसक्तिः अस्ति चेत् अपि गुणकार्यं न भवति। अनन्तरं षड्विधसूत्राणि दत्तमस्ति, संज्ञा च परिभाषा च विधिर्नियम एव च। अतिदेशो अर्ध अधिकारश्च षड्विधं सूत्रलक्षणं, पूर्वं वयं पठितवन्तः सूत्र षड्विधानि सूत्राणि, संज्ञासूत्रं परिभाषासूत्रं विधिसूत्रं नियमसूत्रम् अतिदेशसूत्रम् अधिकारसूत्रं। तत्र निकित इति कीदृशसूत्रमिति प्रश्नमस्ति अन्ते।
किमिति चेत् सूत्रस्य प्रसङ्गे किम् अवगन्तव्यम्?
तत्र समाप्तं, करपत्रं समाप्तम् अस्ति।
समाप्तं महोदय। किमिति च सूत्रस्य प्रसङ्गे अन्येषां कृते वक्तुमिच्छामि महोदय, भवान् जानाति एव क्निति इति पदमस्ति। एकवारं पदं पश्यन्तु, तत्र ककारद्वयं लिखितमस्ति, ककारद्वयं लिखित्वा रूपं लिखितमस्ति, तादृशं रूपमपि साधु एव, एकेन ककारेण युक्तं रूपमपि अस्ति। क्निति च. अत्र यत् पदं दत्तमस्ति अस्मिन् ककारद्वयं लिखितमस्ति, किन्तु एकेन ककारेण युक्तं रूपमपि साधु एव. क्निति इति अन्यत् रूपमपि अस्ति. झरोझरी सवर्णे इति सूत्रेण तत्र आदिमककारस्य लोपं कृत्वा क्निति च इति रूपमपि लेखितुं शक्नुमः. अपि च सूत्रार्थं पश्यामश्चेत् कित् गित् नित् इति लिखितमस्ति. आदौ गित् इति लिखितमस्ति, इत्युक्ते गकारः इत् संज्ञकवर्णः यस्मिन् प्रत्ययः अस्ति सः प्रत्ययः गित् प्रत्ययः. गित् प्रत्ययाः सन्ति वा इति परिशीलयामश्चेत् आम् अस्ति, एकः प्रत्ययः अस्ति घ्नु, घ्नु इति प्रत्ययः अस्ति, तस्मिन् प्रत्यये गकारः इत् संज्ञकवर्णः अस्ति. वयं सर्वे जानीमः जिष्णुः, जिष्णुः इति पदं घ्नु प्रत्ययान्तपदं, तस्मिन् प्रत्यये गकारः इति संज्ञकः. अपि च कित् प्रत्ययान्तपदानि वयं सर्वे जानीमः एव, क्तवतु, क्ता, क्विप्, क्तिन् इत्यादयः कित् प्रत्ययाः सन्ति. अत्र किं लिखितमस्ति, यस्मिन् प्रत्यये गित्तु कित्तु नित्तु अस्ति तं प्रत्ययं निमित्तीकृत्य गुणः वृद्धिः भवति स्म, सः गुणवृद्धिः न भवति. गच कच ञच एते वर्णाः इत् संज्ञकाः सन्ति यस्मिन् प्रत्यये सः प्रत्ययः क्नित्. विग्रहवाक्यं कथं भवति, कच गच ञच इतः यस्य सः, तत्र समस्तपदमस्ति क्नित्, प्रथमान्तं पदं क्नित् अस्ति, किन्तु सप्तम्यन्तं पदं क्निति. क्निति इति कीदृशं पदम् इत्युक्ते क्निति इति पदेन कस्य सङ्केतः दीयते, अथवा क्निति इति पदं कस्य विशेषणं भवति इत्युक्ते क्निति इति प्रत्ययस्य विशेषणं. क्निति इति शब्देन प्रत्ययस्य उल्लेखः भवति, इत्युक्ते क्निति प्रत्यये परे इति अर्थः अस्ति. क्निति प्रत्ययः परः अस्ति चेत् अनेन गुणनिषेधकसूत्रेण गुणकार्यं निषिध्यते. इदं पदं समस्तपदमस्ति. आदिम यः गकारः अस्ति तस्य गकारस्य स्थाने ककारः आयाति, खरि च इति सूत्रेण चर्त्वं भूत्वा आयाति. अत्र स्थानी कः इत्युक्ते इकः स्थानी भवति, इकः गुणवृद्धिनिषेधः भवति. अत्र इकः इति षष्ट्यन्तं पदमस्ति, स्थानी भवति. इको गुणवृद्धिसूत्रस्य पूर्णानुवृत्तिः अस्ति. न धातुलोप आर्धधातुके इति पूर्वं सूत्रं, सूत्रसङ्ख्यां पश्यन्तु, चतुर्थं सूत्रमस्ति, प्रथमाध्यायस्य प्रथमपादस्य चतुर्थं सूत्रमस्ति. किन्तु क्निति च इति पञ्चमं सूत्रमस्ति. न धातुलोप आर्धधातुके सूत्रात् न इति पदस्य अनुवृत्तिः अस्ति. इत्युक्ते न धातुलोप आर्धधातुकसूत्रेण अपि किं क्रियते, गुणवृद्धिनिषेधः एव क्रियते. तेन सूत्रेण अपि गुणवृद्धिनिषेधः एव भवति. तदर्थमेव तस्मात् सूत्रात् न इति पदस्य अनुवृत्तिः अस्मिन् सूत्रे दीयते. नित्वात् बहूनि प्रयोजनानि सन्ति इति अहम् उक्तवती, तेषु अन्यतमं प्रयोजनम् एव गुणवृद्धिनिषेधः. द्वितीयं प्रयोजनमस्ति सम्प्रसारणकार्यं. गणेषु सम्प्रसारणी धातवः यत्र सन्ति तत्र सम्प्रसारणकार्यं भवति नित्वात्, नित्वकारणात्. अन्यत् प्रयोजनमपि अस्ति, उपधायां नकारलोपः भवति नित्वमस्ति चेत्, तुदादिगणीयधातुषु यदा सम्प्रसारणं भवति तत्र नित्वम् एव निमित्तं भवति. एतावत् अत्र विषयः कः, नित्वं निमित्तीकृत्य यानि यानि कार्याणि भवन्ति तानि सर्वाणि कार्याणि अपित् प्रत्ययेषु अपि भवन्ति. निमित्तानि पूरितानि सन्ति चेत् अपित् प्रत्ययेषु अपि नित्वसदृशकार्याणि भवन्ति इति एकः विषयः. सूत्राणि षड्विधानि. अस्माकं पुनःस्मरणार्थं किञ्चित् पृच्छामि. गीताञ्जलि भगिनी एकवारं स्मारयतु, एकं संज्ञासूत्रं वदतु.
भगिनी एकः प्रश्नः अस्ति, अत्र न धातुलोप आर्धधातुके तस्य किं प्रयोजनम् अस्ति?
तस्य सूत्रस्य प्रसक्तिः अत्र किमर्थमस्ति इत्युक्ते तस्मात् सूत्रात् न इति पदम् अनुवृत्तिरूपेण क्निति च इत्यस्मिन् सूत्रे दत्तमस्ति. अत्र अनुवृत्तिं पश्यतु, क्निति च इकः गुणवृद्धिः न. इदं न इति पदं न धातुलोपार्धधातुके सूत्रात् आगतम्. न धातुलोपार्धधातुके सूत्रं किं वदति इत्युक्ते तस्मिन् सूत्रे अपि गुणवृद्धिनिषेधः एव तेन सूत्रेण भवति, तादृशं कार्यमेव अत्रापि भवति. साधारणतया सूत्रं बहु लघु भवति, इत्युक्ते पाणिनिना लाघवार्थं लघुरूपेण सूत्राणि निर्मितानि, किन्तु अनुवृत्तिं पश्यामश्चेदेव वयम् अवगन्तुं शक्नुमः इकः गुणवृद्धिः न भवति इति विषयः. अत्र च इति पदमस्ति, वदतु महोदय, च इत्यस्य अर्थः कः?
नति च इकः गुणवृद्धि न भवति. नति अपि इकः तस्य गुणवृद्धिः न भवति. स अपि च अपि अस्ति.
गोमती भगिनी एकवारं स्मारयतु, च इति पदस्य अर्थः कः?
अत्र ककार गकार नकार प्रत्ययः इत् प्रत्ययः अस्ति चेत् तत्र अपि गुणवृद्धिः न भवति. तत्रापि
अत्र च इति पदम् अव्ययपदमस्ति, पूर्वसूत्रे गुणवृद्धिनिषेधः एव भवति, तदेव अत्रापि भवति इति कृत्वा च इति पदम् अत्र अस्ति. किन्तु अत्र स्मर्तव्यः अंशः कः इत्युक्ते, अस्मिन् सूत्रे च इति यत् पदं दत्तमस्ति तत् पदं खरिचसूत्रात् न आगतं. खरिच इत्यस्मिन् सूत्रे च अस्ति, किन्तु तस्मात् सूत्रात् च इति पदं न आगतं, किन्तु पूर्वसूत्रात् आगतं, न धातुलोपार्धधातुके इति सूत्रात् आगतम् इत्युक्ते तदेव कार्यम् अत्रापि भवति इति अवगन्तव्यः. गीताञ्जलि भगिनी एकवारं स्मारयतु संज्ञासूत्रम् एकं वदतु.
मम एकः संशयः, भगिनी उक्तवती न ककारस्य लोपः किमपि सूत्रेण भवति, तत् सूत्रस्य नम्बर् इति च एकः ककारः दृश्यते न पुस्तके, तत्र ककारस्य लोपः भवति इति उक्तवती, लोपस्य कारणं केन सूत्रेण भवति भगिनि?
झरो झरि सवर्णे.
झरो झरि सवर्णे, अस्तु भगिनि, धन्यवादः.
अष्टाध्याय्याम् अष्टमाध्यायस्य चतुर्थपादस्य पञ्चषष्टितमं सूत्रम्.
अस्तु अस्तु भगिनि.
नमस्ते महोदय, एकः प्रश्नः अस्ति महोदय. गुणवृद्धिनिषेधकसूत्राणि त्रीणि सन्ति, न धातुलोप अर्धधातुके, निति च, तदनन्तरं दीदी वेविटाम् इति. किमर्थं तत्र दीदी वेविटां सूत्रेण च न आगतम् इति प्रश्नः.
अहं न जानामि, कोऽपि जानाति चेत् वदतु.
चिन्ता नास्ति.
महोदय, भवान् एकवारं विवृणोतु अन्येषां कृते, एकं संज्ञासूत्रं वदतु.
संज्ञासूत्रम् इको गुणवृद्धिः, क्षम्यतां, संज्ञासूत्रम् आद्गुणः इति संज्ञासूत्रं भवति.
न, आद्गुणः इति
वृद्धिरादैच् महोदय, क्षम्यतां, वृद्धिसंज्ञा भवति, अथवा अदेङ्गुणः, क्षम्यताम्, अदेङ्गुणः इति गुणसंज्ञासूत्रं भवितुम् अर्हति.
अपि च सुप्तिङ्गन्तं पदम् अथवा तिङ्क्षित् सार्वधातुकम्, इमानि सूत्राणि संज्ञासूत्राणि. अपि च परिभाषासूत्रम् एकं वदतु.
परिभाषासूत्रम् इको गुणवृद्धि भवितुं, परिभाषासूत्रं भवितुम् अर्हति. स्थाने अन्तरतमः, तदनन्तरं वयं पठामः उरण्ड्रपरः.
संज्ञासूत्रमित्युक्ते संज्ञासूत्रेण नामकरणं क्रियते, नामकरणं दीयते. परिभाषासूत्रं किं करोति?
परिभाषं सूत्रे यत्र क्लेशमस्ति तत्र परिभाषासूत्रम् आगत्य तत् क्लेशं निवारयति. उदाहरणं तत्र स्थाने अन्तरतमः इत्यत्र तत् वदति, तत्र किं क्लेशः भवति इत्युक्ते क्लारिफैस् इट् आड्स् टु द क्लारिफिकेशन्.
इदानीं पर्यन्तं वयं कानिचन सूत्राणि वयं पठितवन्तः खलु, सार्वधातुक अर्धधातुकयोः, पुगन्तलघुपदस्य च इत्यादीनि सूत्राणि वयं पठितवन्तः. तेषु उदाहरणार्थं सार्वधातुक अर्धधातुकयोः इत्यस्मिन् सूत्रे इको गुणवृद्धि एकं सूत्रम्, अलोन्त्यस्य अन्यत् सूत्रम्, येन विधिस्तदन्तस्य अन्यत् सूत्रम्, इमानि त्रीणि सूत्राणि परिभाषासूत्राणि आगत्य विधिसूत्रस्य सम्पूर्ण अवगमनार्थम् अस्माकं कृते साहाय्यं करोति. यत्र यत्र विधिसूत्रेषु स्पष्टता नास्ति तत्र इमानि परिभाषासूत्राणि आगत्य स्पष्टतां ददति. इको गुणवृद्धिसूत्रं नास्ति चेत् कुत्र गुणः भवति इति वयं न ज्ञातुं शक्नुमः. तथा एव येन विधिस्तदन्तस्य इत्यपि परिभाषायाः आवश्यकता अस्ति. तथा एव अलोन्त्यस्य इति सूत्रम्, अलोन्त्यस्य परिभाषासूत्रं नास्ति चेत् तत्र अन्तिम अल्वर्णस्य एव गुणः भवतु इति कथं जानीमः? उत्तमं. विधिसूत्रं वदतु एकं.
विधिसूत्रं विधिसूत्रं क्षम्यतां महोदय, अहं न जानामि.
भवान् जानाति एव, विधिसूत्रं वदतु, गुणविधायकसूत्रं वदतु.
गुणविधायकसूत्रं
आद्गुणः.
आद्गुणः, ओ ओके.
वृद्धिविधायकसूत्रं वदतु.
वृद्धिरादैच्.
वृद्धिरादैच् इति
संज्ञासूत्रमस्ति. वृद्धिरादैच्
वृद्धिरेचि वृद्धिरेचि इति गुणविधायकसूत्रद्वयमस्ति, वदतु.
अत्र वा
मिदेर्गुणः इति गुणविधायकसूत्रं, सार्वधातुक आर्धधातुकयोः इति गुणविधायकसूत्रं, कृदन्तलघुपदस्य च इति गुणविधायकसूत्रं, नियमसूत्रम् इति लिखितमस्ति. भवान् जानाति वा?
न जानामि महोदय, क्षम्यताम्.
रात् सस्य इति एकं सूत्रं वयं पठितवन्तः.
कार्यक्षेत्रं सीमितः भवति.
उत्तमं. कार्यक्षेत्रं सीमितः भवति इत्युक्ते नियमसूत्रेण पूर्वं यः नियमः अस्ति सः नियमः सीमितः भवति. वयं विस्तृतरूपेण रात् सस्य इति सूत्रस्य प्रसङ्गे पूर्वं पठितवन्तः. अग्रे गत्वापि पुनः एकवारम् आयस्यति एव रात् सस्य इति सूत्रम्. अत्र अतिदेशसूत्रम् इति लिखितमस्ति. अतिदेशसूत्रस्य प्रसङ्गे का वक्तुमिच्छति? अत्र गीताञ्जलि भगिनी भवती वदतु.
अत्र तु सार्वधातुकम् अपित् आदिगणे विषये एव अतिदेशिकसूत्रम् इत्युक्ते स्वभावपरिवर्तनं यदा भवति अतिदेशिकसूत्रम् इति करोति.
उत्तमम्. अत्र सार्वधातुकम् अपि इति सूत्रम् अतिदेशसूत्रं कीदृशस्वभावपरिवर्तनम् अभवत् स्वस्य वाक्यैः वदतु.
अस्तु, सार्वधातुकम् अपि इत्युक्ते यत्र अपित् अस्ति प्रत्ययः, तत् प्रत्ययः ङित्वद् भवतु इति.
यद्यपि तस्मिन् प्रत्यये साक्षात् णित्वं नास्ति, णित्वं साक्षात् नास्ति चेदपि प्रत्ययः सार्वधातुकः अपि च अपित् अस्ति इति कारणतः तस्मिन् नूतनस्वभावः अध्यारोप्यते अनेन सूत्रेण इति कृत्वा सार्वधातुकम् अपित् इति एकम् उदाहरणमस्ति. पूर्वं वयं किं दृष्टवन्तः? अन्यत् अतिदेशसूत्रं गाङ्कुटादिभ्यो निन्यत् इति सूत्रमपि अतिदेशसूत्रम्. अग्रे वाक्यद्वयं लिखितमस्ति, वाक्यद्वयं पठित्वा विवृणोतु.
पाणिनीयसूत्राणि इति न, पाणिनीयसूत्राणि षड्विधा, संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेश अधिकारश्च षड्विधं सूत्रलक्षणम्. यथा वयं चर्चितवन्तः कीदृशसूत्राणि सन्ति अष्टाध्याय्याम् इति, इत्युक्ते एकं सूची दत्तं. संज्ञासूत्राणि सन्ति, तत्र परिभाषासूत्राणि च सन्ति, विधिसूत्राणि सन्ति, नियमसूत्राणि च सन्ति, अतिदेशिक सूत्राणि सन्ति, अपि च अधिकारश्च इत्युक्ते अधिकारसूत्राणि अपि.
एकवारम् अधिकारसूत्रस्य प्रसङ्गे किञ्चित् वदतु.
संहितायां तु प्रसिद्ध अधिकारसूत्रम् अस्ति इत्युक्ते संहितायाम् इत्युक्ते यदा यदा साक्षात् किमपि निमित्तम् अस्ति चेत् तदेव कार्यं भवेत् इति. यथा वर्णद्वयं साक्षात् स्तः चेत् कार्यं भवेत् किमपि कार्यम्.
अधिकारसूत्रम् इत्युक्ते अधिकारसूत्रस्य अनुवृत्तिः बहुषु सूत्रेषु दृश्यते, बहुषु सन्धिसूत्रेषु संहितायाम् इत्यस्य अधिकारः अस्ति. इत्युक्ते अधिकारसूत्रं स्वतन्त्रतया किमपि कार्यं कर्तुं न शक्नोति. इत्युक्ते अधिकारसूत्रस्य कार्यं किमपि नास्ति, किन्तु तत् सूत्रं बहुषु सूत्रेषु आगत्य तिष्ठति. इत्युक्ते स्वयं किमपि कार्यं न करोति अधिकारसूत्रम्. एतेषु षट्सु सूत्रेषु निषेधकसूत्रं नास्ति. निषेधकम् इति किमपि न लिखितमस्ति. संज्ञा, परिभाषा, विधि, नियम, अतिदेश, अधिकार, षट् पदानि दत्तानि. तेषु निषेधकम् इति पदं नास्ति. कृतिच इति सूत्रं निषेधकसूत्रं. निषेधकसूत्रं कीदृशम् इति महोदय पृष्टवान्. तस्य उत्तरमेव अस्मिन् वाक्ये दत्तमस्ति. अग्रे पठतु.
निति च प्रथम अध्याये प्रथमपादे पञ्चमसूत्रं निषेधकसूत्रं. नाम अनेन कार्यं निषिध्यते. निषेधकं सूत्रं विधिसूत्रेषु अन्तर्भवति. अत्र वाक्यद्वयं पूर्वं पठामि. तत्र निषेधसूत्रम् इति किमपि नास्ति. इत्युक्ते संज्ञा अस्ति, परिभाषा अस्ति, विधिः अस्ति, नियमस्ति, अतिदेशक अस्ति, अपि अधिकारसूत्राणि सन्ति. किन्तु निषेधकं सूत्रं किमर्थं नास्ति इत्युक्ते निषेधकसूत्रं किं करोति, किमपि कार्यं निषिध्यते. इत्युक्ते बाधकं करोति. अपि च निषेधकसूत्राणि ते विधिसूत्रेषु अन्तर्भवति. इत्युक्ते विधिसूत्रे ते तिष्ठन्ति सर्वे.
उत्तमम्. इत्युक्ते निषेधकसूत्रम् अपि एकविध विधिसूत्रमेव. निषेधकसूत्रेण कार्यं कदा भवति? यदा येन केनापि अन्येन सूत्रेण कार्यं विधीयते चेत् तस्य कार्यस्य निषेधः अनेन निषेधकसूत्रेण भवति. इत्युक्ते केनापि सूत्रेण अन्यसूत्रेण कार्यं यद्भवति तस्य कार्यस्य निषेधः निषेधकसूत्रेण भवति. इत्युक्ते निषेधककार्यमपि एकः विधिः एव. कृति च इति सूत्रं विधिसूत्रेषु तदर्थम् अन्तर्भवति. अत्र विषयः कः? यत्र कुत्रापि सार्वधातुकार्धधातुकयोः पुगन्तलघुपथस्य च इत्याभ्यां सूत्राभ्यां यत् गुणकार्यं भवति स्म, अथवा गुणकार्यस्य प्रसक्तिः यत्र भवति, तत्र प्रत्ययः अपित् प्रत्ययः अस्ति चेत् क्निति च सूत्रम् आगत्य तत् गुणकार्यं निषेधयति. इतोपि किं ज्ञातव्यं क्निति च इत्यस्य प्रसङ्गे? क्नितिति प्रत्ययस्य विशेषणं. क्नित् प्रत्ययः अस्ति चेत् गुणनिषेधः भवति. अन्तिमं वाक्यं सार्वधातुकम् अपित् इति कीदृशं सूत्रम्? इदानीं शुभदा भगिनी भवती विवृणोतु कीदृशं सूत्रं, किमर्थं?
भगिनी ततः पूर्वम् अहमेकं कार्यं वदामि. भगिनी अतिदेशसूत्रस्य एकम् उदाहरणं मम नोट्स् मध्ये अहं लिखितवती. लुङ् लङ् लृञ्छु लृञ्छु अट् उदात्तः इति सूत्रमस्ति. तत् उदात्तः भवति. लुङ् लङ् लृङ् यद् उदात्तः इति भवति सूत्रे. परन्तु अहम् अत्र लिखितवती व्याकरणे आगमः अस्ति चेत् स आगमः अनुदात्तः भवति. परन्तु एतेन सूत्रेण आगमस्य लक्षणम् अनुदात्तः न उदात्तः. लक्षणस्य परिवर्तनं भवति अत्र. अतः अतिदेशसूत्रस्य उदाहरणम् इति अहं लिखितवती. सत्यं वा? किरणे अनुदात्तः
इत्युक्ते उदात्तः अनुदात्तः इति वयं किञ्चित् दृष्टवन्तः. लुङ् लङ् लृङ्षु अनुदात्तः इति स्वरोच्चारणप्रसङ्गे भवती उक्तवती.
व्याकरणे आगमः अस्ति चेत् सः आगमः अनुदात्तः भवति इति लिखितवती अहम्. अत्र तु उदात्तः अस्ति. तो सूत्रस्य लक्षणस्य परिवर्तनम् अत्र भवति. अतः एतत् अतिदेशसूत्रस्य उदाहरणम् I don't know from where I got, but I have written here.
Lungrushu adudattaha iti at agamah bhavati iti krutva vidhi sutram aham chintitavati chintaniyam. Anjali bhagini,
aham chintitika? Shariya piccha iti atidesha sutram bhavati va?
Shariya piccha va?
Aha.
Lotlakara prasange.
Aam, aam.
तत्र हि आदेशः भवति इति कृत्वा तदपि विधिसूत्रमेव वदामि. शुभदा भगिनी, भवती अन्तिमं वाक्यं पठित्वा भवत्याः अवगमनं किं, कीदृशं सूत्रं, किमर्थं वदतु.
आं भगिनि, सार्वधातुकमपित् प्रथमे अध्याये द्वितीये पादे चतुर्थं सूत्रमस्ति. तस्य सार्वधातुकम् अपित् इति तस्य सूत्रच्छेदः भवति. सार्वधातुकम् अपित् इत्युक्ते यः सूत्रः, यः प्रत्ययः सार्वधातुक अस्ति परन्तु पित् नास्ति. अपित् इत्युक्ते पित् नास्ति, स च प्रत्ययः ङित्वत् भवति इति सः सूत्रं वदति. इत्युक्ते एतत् सूत्रम् अतिदेशसूत्रम् इति उच्यते, यतोहि तस्य सार्वधातुकम् अपित् प्रत्ययः पित्वत् नास्ति, परन्तु ङित्वत् तस्य व्यवहारः भवति इति. ङित्वत् अस्ति, ङित् नास्ति परन्तु ङित्वत् अस्ति. ङित् प्रत्यये प्रत्ययस्य कारणात् यानि कानि कार्याणि भवन्ति तानि सर्वाणि कार्याणि अपित् प्रत्ययस्य प्रसङ्गे अपि भवन्ति इति एतत् सूत्रं वदति. अतः अतिदेशसूत्रमिति भवति. अपि च एतत् संज्ञासूत्रमपि भवति इति भवती उक्तवती. सार्वधातुकम् इत्युक्ते किम्, अपि च अपित् इत्युक्ते किम् इति वयं ज्ञातवन्तः एतेन सूत्रेण. अतः संज्ञासूत्रमपि एतस्य नामकरणं भवितुम् अर्हति. अतः सार्वधातुकम् अपित् इत्युक्ते ङित्वत् अपित् प्रत्ययाः ये सार्वधातुकाः सन्ति ते सर्वे ङित्वत् भवति, तानि सर्वाणि कार्याणि भवन्ति इति एतत् वदति. तावदेव.
उत्तमं, तदेव. इदं सूत्रद्वयं पुनः अग्रिमे करपत्रे अपि आयास्यति. तत्र इतोपि अन्यान् विषयान् किञ्चित् ज्ञातुं प्रयत्नं करिष्यामः. एतावत् क्लिति च सूत्रं निषेधकसूत्रं विधिसूत्रेषु अन्तर्गतम् इति एकः विषयः. क्लिति इति प्रत्ययस्य विशेषणं, प्रत्ययस्य विशेषणमस्ति इति कृत्व्वा अस्मिन् पदे बहुव्रीहिसमासः अस्ति. साधारणतया बहुव्रीहिसमासयुक्तं पदम् अन्यपदस्य विशेषणं भवति. विशेष्यम् अनुसृत्य विशेषणं वर्तते सर्वदा. क्नित् इति प्रत्ययस्य विशेषणं. प्रत्ययः कीदृशः? क्नित् प्रत्ययः. क्नित् प्रत्यये परे एव गुणनिषेधः भवति. क्निति च इत्यस्मिन् सूत्रे द्वन्द्वसमासः अपि अस्ति. इत्युक्ते द्वन्द्वसमासगर्भ बहुव्रीहिसमासः. भिन्नरीत्या वक्तुमिच्छामश्चेत् बहुव्रीहिसमासस्य गर्भे द्वन्द्वसमासः अस्ति. समस्तपदं क्नः अस्ति. क्नः इतः यस्य सः. क्नित् इति प्रथमान्तं पदं भवति. एतावत्पर्यन्तं वयम् अवगन्तुं किञ्चित् प्रयत्नं कृतवन्तः. णित्वस्य प्रयोजनम् इदम्. अग्रिमे पाठे इदं सूत्रं पुनः आयास्यति. तत्र अभ्यासः अस्ति, गुणकार्यस्य अभ्यासः इति. कानिचन उदाहरणानि दत्तानि, इत्युक्ते केचन धातवः दत्ताः. सः धातुः कस्मिन् गणे अस्ति, विकरणप्रत्ययः कः, रूपसिद्धिः कथं भवति, गुणकार्यं भवति वा न भवति वा, न भवति चेत् किमर्थं न भवति, एतत् सर्वम् अग्रिमे करपत्रे दत्तमस्ति. भवन्तः सर्वे एकवारं तत् करपत्रं पश्यन्तु, अभ्यासमपि कुर्वन्तु. अग्रिमे सप्ताहे वयं पुनः मिलित्वा कांश्चन धातून् स्वीकृत्य अभ्यासं कुर्मः. तेन अस्माकं ज्ञानं सुदृढं भवति. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.